इन्द्र उवाच नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते शङ्खचक्रगदाहस्ते महालक्ष्मी नमोऽस्तु ते नमस्ते गरुडारूढे कोलासुरभयङ्करी सर्वपापहरे देवी महालक्ष्मी नमोऽस्तु ते सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करी सर्वदुःखहरे देवी महालक्ष्मी नमोऽस्तु ते सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्तिप्रदायिनी मन्त्रमूर्ते सदा देवी महालक्ष्मी नमोऽस्तु ते आद्यन्तरहिते देवी आद्यशक्तिमहेश्वरी योगज्ञे योगसम्भूते महालक्ष्मी नमोऽस्तु ते स्थूलसूक्ष्ममहारौद्रे महाशक्ते महोदरे महापापहरे देवी महालक्ष्मी नमोऽस्तु ते पद्मासनस्थिते देवी परब्रह्मस्वरूपिणी परमेशी जगन्मातः महालक्ष्मी नमोऽस्तु ते श्वेताम्बरधरे देवी नानालङ्कारभूषिते जगत्स्थिते जगन्मातर्महालक्ष्मी नमोऽस्तु ते महालक्ष्म्यष्टकस्तोत्रम् यः पठेत् भक्तिमान्नरः सर्वसिद्धिमवाप्नोति राज्यम् प्राप्नोति सर्वदा एककालम् पठे नित्यम् महापापविनाशनम् द्विकालम् यः पठे नित्यम् धनधान्यसमन्वितः त्रिकालम् यः पठे नित्यम् महाशत्रुविनाशनम् महालक्ष्मी भवे नित्यम् प्रसन्ना वरदा शुभा इति इन्द्रकृतः महालक्ष्म्यष्टकस्तवः सम्पूर्णः।